सुभ्यम् यन्वानो वा दृष्टगा अवोधुक्षन् सीमभिरद्रिभिर्नराः पिबेन स्वाहा प्रभूतम् वषत्कृतम् होत्रादा सोमम् प्रथमो जयीशीषे यज्ञैः सम्मिश्रा पृषादिभिर्हृष्टिभिर्यामन् शुभ्रासो अञ्जिषु प्रिया भूता आरद्या बहिर्भारतस्य सो नवः पोत्रादा सोमम् पिबतादिवो नरः अमेव नः सुभवा आहिगन्त न निबर्हिषे सदतनारनिष्टन अथा मन्दस्त जिजुषाणो अन्धसस्तष्टदेवेभिर्जनेभिः सुमद्गणः आवक्षिदेवा प्रयक्षि चोसन्भोगर्निषदायोनिषु त्रिषु प्रदेलेः प्रस्थितम् सौम्यम् मधुविवाग्ने ध्यात्तव भागस्य तृप्णिः एषस्य ते तन्वारम् न वर्धनः सहवोजः पृथिवी बाह्वोर्हिरः तुभ्यम् श्रुतोमघवन्तुभ्यमाभृदस्तमस्य ब्राह्मणादादृपत्नीव सुषेधाम् यज्ञम् बोधतम् गमस्य मे सत्त्वो होदारिमिदः पूर्व्या अनु अच्छा राजानमजेत्यावृतम् प्रसास्त्रादापि व्रतम् सौम्यम् मधु